चिंता का पिन कार्या निवेदितात्म भी कदापीति भगवान अपि पुष्टिस्थो न करिष्यति लौकिकीं च गतिं निवेदनं तु स्मर्तव्यं सर्वथा तादृशैर्जनैः सर्वेश्वरश्च सर्वात्मा निजेच्छातः करिष्यति सर्वेषां प्रभुसंबंधो न प्रत्येकमिति स्थितिः अतोऽन्यविनियोगेऽपि चिंता का स्वस्य सोऽपि चेत् अज्ञानादथ वा ज्ञानात् कृतमात्मनिवेदनम् यैः कृष्णसात्कृतप्राणैः स्तेषां का परिदेवना तथा निवेदने चिंता त्याज्या श्री पुरुषोत्तमे विनियोगेपि सा त्याज्या समर्थो हि हरिः स्वतः लोके स्वास्थ्यं तथा वेदे हरिस्तु न करिष्यति पुष्टिमार्गस्थितो यस्मात् साक्षिणो भवताखिलः सेवाकृतिर्गुरोराज्ञा बाधनं वा हरिच्छया अतः सेवा परं चित्तं विधाय स्थियतां सुखं चित्तोद्वेगं विधायापि हरिर्यद्यत् करिष्यति तथैव तस्य लीलेति मत्वा चिन्तां द्रुतं त्यजेत् तस्मात् सर्वात्मना नित्यं श्रीकृष्णः शरणं मम वदद्भिरेव सततं स्थेयमित्येव मे मतिः।